ऊर्ध्वमूलो वाक्शाख ऊर्ध्वमूलो वाक्शाख एषो स्वत्ता सनातनः एषो स्वत्ता सनातनः तदेव शुक्रं तत् ब्रह्मा तदेव शुक्रं तत् ब्रह्मा तदेवामृतमुच्यते तदेवामृतमुच्यते तस्मिन् लोकाः श्रुताः सर्वे तस्मिन् लोकाः श्रुताः सर्वे तदुनात्येति कश्चन तदुनात्येति कश्चन एतद्वैतत् एतद्वैतत् यदिदं किं च जगत् सर्वं यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् प्राण एजति निःसृतम् महद्भयं वज्रमुद्यतं या महद्भयं वज्रमुद्यतं या एतद्विदुरमृतास्ते भवन्ति एतद्विदुरमृतास्ते भवन्ति भयादस्याग्निस्तपते भयादस्याग्निस्तपते भयात्तपति सूर्यः भयात्तपति सूर्यः भयात् इन्द्रश्च वायुश्च भयात् इन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः मृत्युर्धावति पञ्चमः इह चेदशकद्बोद्धुम् इह चेदशकद्बोद्धुम् प्राक्शरीरस्य विस्त्रसः प्राक्शरीरस्य विस्त्रसः तत सर्गेषु लोकेषु तत सर्गेषु लोकेषु शरीरत्वाय कल्पते शरीरत्वाय कल्पते यथा दर्शे तथात्मनि यथा दर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके यथा स्वप्ने तथा पितृलोके यथा सुपरीव ददृशे तथा गन्धर्वलोके यथाप्सुपरीव तदृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके छायातपयोरिव ब्रह्मलोके इन्द्रियाणां पृथग्भावम् इन्द्रियाणां पृथग्भावम् उदयास्तमयौ च यत् उदयास्तमयौ च यत् पृथग् उत्पद्यमानानां पृथग् उत्पद्यमानानां मत्वाधीरो न शोचति मत्वाधीरो न शोचति इन्द्रियेभ्यः परं मनाः इन्द्रियेभ्यः परं मनाः मनसत्त्वमुत्तमम् मनसत्त्वमुत्तमम् सत्त्वादधि महानात्मा सत्त्वादधि महानात्मा महतो व्यक्तमुत्तमम् महतो व्यक्तमुत्तमम् अव्यक्तात्तु परःपुरुषः अव्यक्तात्तु परःपुरुषः व्यापको लिङ्ग एव च व्यापको लिङ्ग एव च यं ज्ञात्वा मुच्यते जन्तुः यं ज्ञात्वा मुच्यते जन्तुः अमृतत्वं च गच्छति अमृतत्वं च गच्छति न सन्दृशे तिष्ठति रूपमस्य न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनं न चक्षुषा पश्यति कश्चनैनं हृदा मनीषा मनसाभिकृप्तो हृदा मनीषा मनसाभिकृप्तो य एतद्विदुरमृतास्ते भवन्ति य एतद्विदुरमृतास्ते भवन्ति यदा पञ्चावतिष्ठन्ते यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ज्ञानानि मनसा सह बुद्धिश्च न विचेष्टते बुद्धिश्च न विचेष्टते तामाहुः परमां गतिं तामाहुः परमां गतिम् तां योगमिति मन्यन्ते तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणां स्थिरामिन्द्रियधारणां अप्रमत्तस्तदा भवति अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ योगो हि प्रभवाप्ययौ नैव वाचा न मनसा नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा प्राप्तुं शक्यो न चक्षुषा अस्तीति ब्रुवतो अन्यत्र अस्तीति ब्रुवतो अन्यत्र कथं तदुपलभ्यते कथं तदुपलभ्यते अस्तीत्येवोपलब्धव्यः अस्तीत्येवोपलब्धव्यः तत्त्वभावेन चोभयोः तत्त्वभावेन चोभयोः अस्तीत्येवोपलब्धस्य अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति तत्त्वभावः प्रसीदति यदा सर्वे प्रमुच्यन्ते यदा सर्वे प्रमुच्यन्ते कामायेस्य हृदिश्रिताः कामायेस्य हृदिश्रिताः अतः मर्त्यो अमृतो भवति, अतः मर्त्यो अमृतो भवति, अत्र ब्रह्म समश्नुते, अत्र ब्रह्म समश्नुते। यदा सर्वे प्रभिद्यन्ते, यदा सर्वे प्रभिद्यन्ते, हृदयस्येह ग्रन्थयः, हृदयस्येह ग्रन्थयः, अतः मर्त्यो अमृतो भवति, अतः मर्त्यो अमृतो भवति, एतावद् अनुशासनम्, एतावद् अनुशासनम्। शतं चैका च हृदयस्य नाड्य, शतं चैका च हृदयस्य नाड्य, तासां मूर्धान अभिनिःश्रुतैका, तासां मूर्धानम् अभिनिःश्रुतैका, तयोर्ध्वमायन् अमृतत्वमेति, तयोर्ध्वमायन् अमृतत्वमेति, विश्वं अन्या उत्क्रमणे भवन्ति, विश्वं अन्या उत्क्रमणे भवन्ति। अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा, अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा, सदा जनानां हृदये सन्निविष्टः, सदा जनानां हृदये सन्निविष्टः, तं स्वच्छरीरात् प्रवृहेत्, तं स्वच्छरीरात् प्रवृहेत्, मुञ्जादि वेशीकां धैर्येण, मुञ्जादि वेशीकां धैर्येण, तं विद्याचुक्रम् अमृतम्, तं विद्याचुक्रम् अमृतम्, तं विद्याचुक्रम् अमृतमिति, तं विद्याचुक्रम् अमृतमिति। मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा, मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा, विद्यामेतां योगविधिं च कृत्स्नम्, विद्यामेतां योगविधिं च कृत्स्नम्, ब्रह्मप्राप्तो विरजो भूद्विमृत्युः, ब्रह्मप्राप्तो विरजो भूद्विमृत्युः, अन्योऽप्येवं यो विद् आध्यात्ममेव, अन्योऽप्येवं यो विद् अध्यात्ममेव।